कितवान कर्नाटक राज्य पुरुषाः पञ्चे इति कथित दौत्रवस्त्रं कटिभागे धारयन्ति तदुपरि करांश्युकः युतकः वर्तते कार्पासे रेशम्या वा वितं अंगवस्त्रं ग्रीवमावृत्य निवेशयन्ति पुरुषाः मैसूरपेटा इति नाग्नप्रसिद्धं उष्णीशं शीर्षि धारयन्ति स्त्रीणा पारंपरिक परिधान शाटिका या कार्पासे या रेशम्या विता वर्तते तथा नवगजमित दीर्घ भवति स्त्रिय पुष्पय केशपाशमूलकः कुर्वन्ति विशेष वस्त्रेषु हेमव्रज निर्मितानि आभूषणानि धारयन्ति अपि समाप्तम् धारन्ति अपि समाप्तम्
अग्रे
शङ्का अस्ति महोदय धर् धातु धृ धातु भेदः कः
धृ धातु एव
धर् धरति
तत्र द्वयमस्ति धरति धारयति इति द्वयमस्ति धृतवन्तः भवती यदा उक्तवती तत् सर्वं कर्मणि करोति धार्यते इति
अहं धृधातु एव उपयुज्य लिखितवती
द्वयमपि सम्यक्
धरति धर् धातु धरति मीन्स् भूमि इति वा
सेकेण्ड् धरति
धारयन्ति वट् यु सेड् फार् दट् करेक्षन्
धार्यते लकारः ततः अहम् अधिकं न उक्तवती कौशल्या भगिन्याः प्रश्नार्थम् उत्तरमपि तत् किञ्चित् अन्येषां कृते कन्फ्यूषन् भवति इति अनन्तरं चर्चां कुर्मः कौशल्या भगिनी आवश्यकं चेत् वयं द्वयमेव किमित्युक्ते तत्र लकारः इदानीं वयं लकारः मीन्स् टेन्स् प्रसेण्ट् टेन्स् वयं जानीमः पास्ट् टेन्स् जानीमः भविष्यत्कालं फ्यूचर् टेन्स् जानीमः अन्य देर् आर् टोट्लि टेन्स् इन् देट् वी हेव् वन् थिङ्ग् काल्ड् विधिलिङ्ग् लकारः अनन्तरं कर्मणि प्रयोगस्य लकाराः अपि सन्ति पासिव् वाय्स् तत्र धार्यते धार्यन्ते अधारत् तत्सर्वं सम्यक् एव बेस्ड् आन् हौ यु मेक् युवर् सेण्टेन्सस् सामान्यतया वयम् अत्र धरति धृतवान् धृतवती सिम्पल् प्रसेण्टेन्स् पास्ट् टेन्स् एव उपयोगं कुर्मः अग्रे गच्छति
मम गृहे मम मातापिता पुत्री सहोदरद्वयम् एका भगिनी च सन्ति अद्य भानुवासरः इदानीं वयं सर्वे महालक्ष्मीदेवालयं गन्तुम् इति इच्छामः सायङ्काले सर्वे पञ्चवादने सज्ज अभवन् अहं नीलवर्णशाटिका कञ्चुका धृतवती मम पिता ऊरुकं श्वेतयुतकं मम माता हरिवर्णशाटिका च धृतवन्तः मम सहोदराः ऊरुकं करांशुकं धृतवन्तः मम सहोदरी समीचीनं निवोलः धृतवती निचोलः धृतवती
फुल् स्कर्ट्
सर्वे देवालयं प्रवृत्तवन्तः तत्र मम भगिनी कमलां मिलितवती अहम् आनन्दित अभवत् देवालयस्य अन्तः
आनन्दिता अभवत् स्त्री
आनन्दिता देवालयस्य अन्तः बहुवर्णपुष्पाभ्यः विभूषितवान् पुरोहितः धौतवस्त्रम् उत्तरीयं धृतवान् देवतां पूजां कृत्वा पुरोहितः प्रसादं विभाजितवान् तदनन्तरं देवतां नमस्कृत्वा बहिः आगतवन्तः पुरतः लघुवापि आसीत् तत्र कतिचत् कालं यापयित्वा गृहम् आगच्छामः आगतवन्तः Here I have a doubt. When I write Mama Mata Harivarna Shatika cha Mama Pita Mama Pita Urukam Haritavarnaha Haritavarnaha Mama Pita Urukam Yutakam Mama Mata Haritavarnaha Dutavantaha So we can use that this thing Pullinga only no?
यदा कामन् मिक्स्ड् लिङ्गम् आगच्छति मिश्रणलिङ्गं तत्र पुल्लिङ्गमेव प्रधानं
पुल्लिङ्गमेव
अग्रे
इन्स्टेड् आफ् आगतवन्तः प्रत्यागच्छामः
तदपि गृहं प्रत्यागच्छामः अपि
गृहं प्रत्यागच्छामः इति वदतु
न तत्र गृहं प्रत्यागतवन्तः एव आगच्छामः नास्ति एतत् सर्वं भूतकाले एव अस्ति खलु अग्रे
भगिनी नमस्कारः पारुल् वदामि विद्यालये सर्वछात्राः समान गणवेशं धरन्ति छात्रः श्वेतवर्णं युतकं गलपट्टं पूरकं धरन्ति छात्राः श्वेतवर्णम् अर्धनिचोलः धरन्ति शिक्षिका शाटिकां धरति ग्रामे शिक्षकः करांशुकं धौतवस्त्रम् उत्तरीयं च धरति नगरे शिक्षिका कराशुकम् एवं आदांशुकं धरति कृषिकः द्रौतवस्त्रं शिरस्त्राणि धरति भारतदेशे उत्तरप्रदेशे मार्गशीर्षमासे बहुव शैत्यमासीत् तदा जनाः हस्तकोश पादकोश पादांशुकं च धरन्ति दक्षिणप्रदेशे जनाः चित्रवेष्टि उत्तरीयं धरति महिला धरन्ति
जनाः इति आगच्छति बहुवचनं
हा धरन्ति महिला शाटिकां धरति मम पुत्री विवाहसमये वधूस्य वस्त्रं धृतवती धृतवती न भगिनी धृतवती
वधूः वस्त्रं
वधूः वस्त्रं हा हा वधूः वधूः वस्त्रं धृतवती शाटिका धृतवती सुवर्णे परिकल्पितं चोलः सुवर्णकण्ठहार रत्नझटितं कङ्कणं नासाभरणं कटिमेखला किङ्किणी च षोडशृङ्गारं धृतवती वरः विवाहसमये सुवर्णझटितं करांशुकम् उष्णीषपट्टकं बहुमूल्यवान् धरति वरवधूपक्षाय जनाः मनमोहकं वस्त्राणि धरन्ति अद्यतनसमये नायकनायिका यावत् वस्त्रं धरति तावत् सामान्ययुवकयुवतीं वस्त्रं धरन्ति हिन्दीचलचित्रं मध्ये विद्याबालन् शाटिकां धरति जेक्वेलिन् फर्नाडिस् तान् वस्त्रं धरति
अभवत् सम्यक्
अभवत्
अग्रे
नमस्ते भगिनि अहं वीणा केरलराज्यस्य परम्परागतः वस्त्रं मुण्डमेरियद् अस्ति. वस्त्रद्वयमस्ति, उपवस्त्रम् अधरः वस्त्रं च. मुण्डु आरोहम् अभितः धृतन्ति. मेरियद् अर्धशाटिकादृशः धृतन्ति. सामान्यतः तस्य वर्णः स्ववपीतारक्तः अस्ति. पुराकाले एतत् वस्त्रं वृद्धाः एव धृतन्ति स्म, परन्तु अद्यतनः युवत्यः अपि मुण्डं नेरियद् धृतन्ति. विशु, ओणं च
धरन्ति, प्रसेंट टेंस, धरति धरन्ति एकवचनं बहुवचनं, अथवा भूतकाले धृतवन्तः धृतवान् धृतवती धृतवन्तः धृतवत्यः. धृतन्ति इति नास्ति, धरति धरन्ति भूतकाले एव धृतवान् धृतवती इति आगच्छति. भवती प्रसेंट टेंस एव उपयोगं करोति खलु, धरति धरन्ति एव.
पुराकाले एतत् वस्त्रं वृद्धाः एव धरन्ति स्म.
धरन्ति
धरन्ति स्म, परन्तु अद्यतनः युवत्यः अपि मुण्डं नेरियदं
धरन्ति एव. अद्यतनकाले प्रसेंट टेंस एव, अतः धरन्ति.
विशु, ओणं च अन्य पर्वदिने धरन्ति. समाप्तम्.
सम्यक्. अग्रे का वदति?
मम नाम रमा.
हा,
शाटिका, शाटिका मम प्रियवेषाणि अस्ति. यदा अहं भारतदेशे वसामि तदा अहं कर्पास वा पट्टशाटिकाः चोलः च वारं वारं धृतवती. परन्तु यूरोप् मध्ये वातावरणसमा शीतल अस्ति, शीतलम् अस्ति, क्षम्यताम्, अत्र शाटिका उपयुक्तवेषं नास्ति. अतः अहं शक्यतम् ऊरुकं युतकं प्रावारकः च धारयामि. यदा उत्सवदिनम् आसीत् तदा अहं शाटिकाम् एव धारयामि. यदा अहं देवालयं गच्छामि तदा अहं शाटिका एव धरामि.
धृत्वा धृत्वा गच्छामि अपि सम्यक्, त्वा प्रयोगः,
धृत्वा गच्छामि. अत्र शीतकाले सर्वे
अत्र
शीतलकाले सर्वे हस्तकोशः गलबन्धः हिमयुतकम् उष्णीषं च अवश्यं धृतवन्तः. सर्वकाले सर्वे जना स्यूते वृष्टियुतकं नीतवन्तः. अभवत् भगिनि?
तत् सर्वं एव्री डे प्राक्टीस् रैट्? एव्री इट्स् देर् आल् अराउण्ड् द इयर्. सो
आल्वेस्
धरन्ति, स्वीकरोन्ति, स्वीकुर्वन्ति इति सर्वं प्रसेंट टेंस एव. धरन्ति,
ओके, एण्ड् हौ धरन्ति, सो अवश्यं धरन्ति. एण्ड् देन् इफ् ऐ से सर्वकाले स्यूते वृष्टियुकं नीतवन्तः,
नयन्ति,
नयन्ति.
आम्
धन्यवादः भगिनि. अभवत्
सम्यक्.
कनसे भगिनि विजयाय. अहं मम परिवारेण सह कार्लाङ्ग् नगरस्य देव्याः मन्दिरं गतवती. मन्दिरस्य अन्तरं गत्वा वयं देव्याः दर्शनं प्राप्तवन्तः. दुर्गादेवी नीलवर्णा केशरवर्णा च शाटिका धृतवती. हरितवर्णानि कङ्कणानि सुवर्णकण्ठहाराः वज्रताटकाः केम्पनासाभरणम् इति आभरणानि देवीम् अतिशोभितवन्तः. मेखला अपि आसीत्. पादौमिकाः केयूरे दृष्टवत् किङ्किण्यौ धारयित्वा देवी सुन्दरम् अभवत्. देव्या भाले हीरा तिलकम् आभूषितवत्. भिन्नवर्णानां मालानि देवीं शोभितवन्ती.
मालाः त्रिलिङ्गं.
मालाः देव्याः तेजं दृष्ट्वा अहं बहु हर्षम् अनुभवत्. देव्यै प्रणाम कृत्वा अहं देव्याः रूपं मम हृदये स्थापितवती. अभवत्.
सम्यक्.
धन्यवादः.
अग्रे
महोदय शर्मिला. मम महामह्यौ गजनवं शाटिकाः धृतवत्यः. गजनवं शाटिकाः धृतवत्यः. माता गजपञ्च. अहं तु सापि क्लिष्टा, अतः गजद्वयम् उत्तरीयम् एव धरामि. प्रतिदिनं जनाः प्रायः दृढोरुकं पीयुतिकम् एव परिगृह्णान्ति. अहमपि स एव. पुरुषाः प्रायः कार्यालये गन्तुम् उरुकं युतकं कटिबन्धः कलपट्टः च धरन्ति. गृहे अर्धारुकं पीयुतिकं च धरन्ति. किन्तु आनन्दोत्सवे प्रायः अधोवस्त्रं वा पादांशुकं कौशेयकरांशुकं च धरन्ति. निद्राय सर्वे कार्पासनर्तकं वा पादयामं धरन्ति इति मन्ये. इदानीम् अत्र शीत ऋतुः अस्ति. शीत ऋतौ बहिः गन्तुम् उष्णवस्त्राणि आच्छादयामि, यथा और्णशिरस्त्रं, पूर्णिका, स्वेदकं, हस्तकोशौ, प्रावारकम्, औरुणं, पादकोशं, पादत्राणं च. तावदेव.
पश्यतु भिन्नभिन्नकल्पना सर्वेषाम्. अग्रे
लक्ष्मी भगिनि. I'm a little confused about the tenses, so उगादि उत्सवः अस्माकं नूतनवर्षः अस्ति. उगादि उत्सव मम कुटुम्ब प्रतिवर्षः आचरणं
कुर्वन्ति. यदा प्रतिवर्षं सर्वदा इट्स् अ रोटीन्. अनन्तरं प्रसेण्टेन्स् एव.
अर्थात् प्रत्येक सदस्यः नवीनवस्त्राणि क्रीणन्ति.
आं क्रीणामः. वयम् इति आगच्छति, अतः क्रीणामः.
एतत् वर्षः कोविड् कारणेन
वर्षं सर्वदा
एतत् वर्षं कोविड् कारणेन अस्माकं वस्त्रापणं न गतवन्तः. सङ्गणकेन वस्त्रापणं क्रीणन्ति. मम
क्रीतवन्तः युगादि अभवत् खलु. You bought it already. Kreetavantah.
Mama pati urukam yutakam veshti antar yutakam padas yutaha cha kreetavantah.
Kreetavan.
Okay.
Ekavachan.
मम पुत्री नीलनिचोलः स्वेदकं करवस्त्रं च क्रीतवन् अहं लालवर्णशाटिका चोलः अर्धनिचोलः क्रीतामि.
तदपि क्रीतवती एव पास्ट् टेन्स् सर्वं समानम्.
ओके,
प्रेसेंट टेन्स् मध्ये क्रीणामि, पास्ट् टेन्स् क्रीतवती.
इवन् इफ् इट् इस् मी.
आमां, भूतकालं सर्वं समानं खलु. आल् पर्सन्स् आर् सेम्.
नूतनवस्त्राणि धृत्वा एकः भावचित्रेण उत्सवः आचरणं
कृतवन्तः. नूतनवस्त्राणि धृत्वा एक भावचित्रं स्वीकृत्य आचरितवन्तः. अग्रे
नमस्ते मेम्.
ऐ
वाण्ट् टु से ऐ डोण्ट् नो वेदर् द टेन्स् इस् करेक्ट्. मम पुत्रस्य विद्यालये समवस्त्राणि आवश्यकम् अस्ति.
गणवेषं यूनिफार्म्
बालकाः श्वेतयुतकं, धूसरः उरुकं, नीलगोलपद, नीलः श्वेदकं, धूसरः पादकोशः, श्यामपदत्रणं च
परिग्रहं
पादत्राणं च परिगृह्णन्ति. ग्रीष्मकाले बालकाः अर्ध उरुकं परिगृह्णन्ति. बालिकाः समान ऐ थिङ्क् इट्स् परिगृह्णन्ति. ऐ डोण्ट् नो वेदर् इट्स् ऐ वाण्ट् टु से दे आल् वेर्
वेर्
वेर् या
धरन्ति एव.
ओके, इन् द डिक्शनरी ऐ गोट् दिस् वर्ड्.
परि अस्ति परन्तु धरन्ति सिम्पल् पर्याप्तम्.
ओके, बालिकाः समानवस्त्राणि धरन्ति. केवल दूसरः उरुकमस्थाने दूसरः अर्धनिचोलः धरन्ति. दट्स् आल् ऐ हेव्.
अग्रे
मैम, भारतदेशस्य पारम्परिकवस्त्रः विषये अद्य अहं वदामि. स्त्रियः शाटिकाम् अपि चोलः धारयन्ति. वेष्टिः युतकं, पुरुषाः वेष्टिः युतकं
धरन्ति एव. धारयन्ति फर् अदर्स् दे make others like the children.
धरन्ति ओके धरन्ति सो फोर् अदर्स् मीनिङ्ग्
अहं मम पुत्रं पुत्रस्य वस्त्रं धारयामि ऐ मेक् हिम् वेर्
धारयामि
ऐ वेर् धरामि
ओके बट् मेम् वेन् वि आर् टाकिङ्ग् अबौट् अदर्स् लैक् दे वेर्
तत्रापि धरन्ति अहं धरामि अहं धारयामि ऐ मेक् अदर्स् टु वेर् अहं धारयामि अहं मम पुत्रं धारयामि वस्त्रं धारयामि इति अदर्स् आर् वेरिङ्ग् धरन्ति धरति एकवचनं धरन्ति बहुवचनम्
ओके सो ऐ थिङ्क् ऐ मेड् दिस् मिस्टेक् ऐ हव् रिटन् दिस् धारयन्ति एव्रीवेर् सो या पुलिका वेष्टिः युतकं च धरयन्ति राइट्
धरन्ति
ग्रीष्मकाले बालिकाः अर्धनिचोलः धरन्ति शीतकाले बालिकाः ऊर्णिका स्वेदकम् अपि धरन्ति मम मातामही नासाभरणम् उद्वहति मातामहः नित्यं शुभ्रः वेष्टि केवलं धरति
धृतवान्
अस्माकं विवाहे सर्वे स्त्रियः नवगजशाटिकां धरन्ति सोरि
दट्स् ओके धरन्ति प्राक्टिस् कल्चर् अतः
धरन्ति पुरुषः वेष्टि च उत्तरीयं धरन्ति पुरुषाः वेष्टिः च उत्तरीयं धरन्ति वधुः हरिद्राशाटिकाम् एव धरति मम कन्यकायां प्रियवस्त्रः अर्धनिचोलः अस्ति मम पति अर्ध उरुकं धरति दीपावली उत्सवसमये वयं सर्वे नूतनवस्त्राणि धरन्ति अनन्तरं देवस्य वन्दनं कुर्वन्ति
तत्र वयम् इति आगच्छति चेत् धरामः
वयम् ओके वस्त्राणि धरामः धरामः अनन्तरं देवस्य वन्दनं कुर्यामः
कुर्मः
ओके यस् मेम् दट्स् इट्
अनन्तरं
शोभा आण्ड्री
पूर्वतर
यदा वयं भारतदेशं गतवन्तः अहं मम पुत्राय द्वौ क्रांशुकौ क्रीतवती अपि एका शाटिका गृह्णाति गृह्णामि बट् इन् द पास्ट् टेन्स् इज़न्ट् इट् ऐ बोट्
गृह्णीतवती ऐ बोट् इट् क्रीतवती अपि सम्यक्
क्रीतवती शाटिकायै चोलाः वयं तत्र सीवनं कृतवती अत्र होङ्काङ्ग् देशे सम्यक् भारतस्य वस्त्राणि मिलतु बहु कष्टं जनाः
न लभते भारतस्य वस्त्राणि
न लभते जनाः अत्र सामान्यतः पश्चिमदेशस्य वस्त्राणि रोचते निचोलः अर्धनिचोलः उरुकं च युतकं सामान्य भवत् भारतदेशे वस्त्राणि क्रीणं समीचीनम् अभवत् Yes, that's her.
Anantaram.
अद्यतनवर्गः तु बहु कौतूहकलहवत् अस्ति महोदय. वेरि इण्ट्रेस्टिङ्ग्. हौ डु ऐ पुट् इट्? टुडेस् क्लास्
बहु समीचीनम् अस्ति.
बहु समीचीनम्. अद्यतनकक्षावर्गं वर्गः तु बहु समीचीनमस्ति.
पश्यतु, बहु भिन्नभिन्नकल्पनाः. Everybody is telling either their experience athava flashback of daughter's marriage, yugadi katam krutavati, devalayam gamana samaye katam dhritavantah iti. Bahu, everybody is different. I don't see a unique way of, only thing is the unique dress is urukam yutakam eva sarvatra. Karam shukam padam shukam asti parantu sarve ट्रौसर्स् टि शर्ट् एव सर्वत्र यूनिवर्सल् ड्रेस् इति तत् अवगतम् इदा एतस्मिन् काले. चिन्ता मास्तु, एवमेव गच्छति, प्रचलति. कालः यदा गच्छति तदा एव वयमपि गच्छामः. परन्तु ऐ सा इट्स् वेरि वेरि डिफ्रेण्ट् कैण्ड् आफ् एव्रिबडीस् वे आफ् पुटिङ्ग् दट्स् वेरि इण्ट्रेस्टिङ्ग्. And I hope others are also learning. When somebody is explaining, you would have got many words or tenses or
names. Yes, yes, yes.
Bahu mukhya amsha asti. Others learning from hearing others.
Yeah, yeah.
Bahu upayoga upayujyam karo. I mean, we are able to use
katam upayujya. Katam upayujyante athava कथम् उपयोगं कुर्वन्ति भिन्नभिन्नवाक्यानि
उपयोगं कुर्वन्ति वाक्ये इति वयं लर्निङ्ग् केन श्रुतः
वयं जानीमः अवगच्छामः अवगच्छामि. ऐ अण्डर्स्टाण्ड् अवगतवती. ऐ अण्डर्स्टुड् अवगतवान् लिङ्गम् अवगतवती
अवगतवती. अस्तु
भगिनी, संशयमस्ति. धरति एण्ड् धरन्ति एकवचन एण्ड् बहुवचनं
धरति धरन्ति
धरन्ति एण्ड् भूतकालं
धरामि धरामः.
हा, ओके. एण्ड् भूतकालं धरितवान्
धरितवती धृतवान् धृतवती.
ओ, धृतवान्, नाट् धरितवान्, धृतवान्.
अस्तु, सम्यक्, उत्तमं, बहु उत्तमं प्रयत्नं. कति निमिषाः, हौ मच् टैम् यु स्पेण्ड् टु प्रिपेर् दिस् अप्राक्सिमेट्लि?
Nearly 1 hour, 40 minutes to 1 hour.
Yeah, 1 hour.
Mostly to think about the topic.
Yeah. First to think about what we should tell, the story or the matter, and then writing it.
Tatpashchat, padashodhana may be ati samayam.
Padashodhana, ati kashta.
Tadeva avashikam kalav. Evameva.
Spoken Sanskrit day. That site is really excellent.
The dictionary. Veda api opensanskrit.org, .org.
Veda api upyogam kartum shakyate. Either Sanskrit to English or English to Sanskrit.
Parantu tat Bharata deshasya site nasti, janati va, tat German deshasya.
Oh, ho, ho, is it? German deshasya.
अस्माकं तु इतोपि एकमस्ति, आन्ध्रभारती इति, आन्ध्रसंस्कृतभारत्याः वेब्सैट्. तदपि बहु सम्यक् डिक्षनरि, आन्ध्रभारती डाट् काम्. तत् बहु सम्यक् अस्ति. यत्र ओपन् सन्स्क्रिट् मध्ये न लभ्यते चेत् तत्र आन्ध्रभारती मध्ये द्रष्टुं शक्यते.
आन्ध्रभारती डाट् काम्.
आम्, आन्ध्रभारती कण्टिन्यूस्लि आन्ध्रभारती अथवा संस्कृतभारती आन्ध्र स्पोकन् डिक्षनरि इति अन्वेषयतु अन्वेषणं सर्चिङ्ग् अन्वेषयतु
शब्दसागर डिक्षनरि अपि सम्यक् अस्ति
सप्तसागर वा
शब्दसागर
स्पेलिङ्ग् करोतु मेबि यु केन् टैप्
शब्दसागर
यदा एवं हा आगच्छति
शेर् संस्कृत इङ्ग्लिश् अहं प्रेषयामि वाट्साप्
तदेव इण्डिक् कीबोर्ड् डौन्लोड् कुर्वन्ति चेत् सर्वं भाषायां टैपिङ्ग् शक्यते
कथं महोदय अहं न जानामि
इण्डिक् कीबोर्ड् इति एक आप् अस्ति खलु तत् डौन्लोड् करोति चेत् यु केन् चेञ्ज् द लाङ्ग्वेज् यु केन् टैप् इन् आल्
आण्ड्राय्ड्
मध्ये अपि अस्ति ऐफोन् मध्ये अपि अस्ति You can type it in any language. You can change the language and type it.
Why the Germans are doing and not Indians? Dictionary?
Really fascinating. That's altogether a different discussion.
Different discussion, yes.
we are moving away and they want to come in.
Really, really. Yeah. So,
they had done a lot of work. Germans had done
a lot. Yeah.
पश्यामः इदानीम् एतस्मिन् सप्ताहे अहं शेर् करोमि स्क्रीन् अभ्यासपुस्तकम् इदानीं वयं कुत्र स्मः तृतीया विभक्ति अहं पूर्वमेव उक्तवती खलु वि हव् नाट् एक्चुलि सीन् इन् दिस् बुक् बट् वि हव् आलरेडि सीन् थ्रू दट् शब्दम् अनन्तरम् इतोपि एकविषयं शब्दरूपाः पठितवन्तः वा रामशब्दं सीताशब्दम् अहम् उक्तवती पठित्वा आगच्छन्तु इति
रामशब्दः
पठितवती वा वदति वा रमा भगिनि
आं भगिनि रामः रामौ रामाः रामं रामौ रामान् रामेण रामाभ्यां रामैः रामाय रामाभ्यां रामेभ्यः रामात् रामाभ्यां रामेभ्यः रामस्य रामयोः रामाणां रामे रामयोः रामेषु हे रामा हे रामो हे रामाः
सम्यक् सीताशब्दम् कोऽपि वदति वा रमा आर् सीता एनि एनि स्त्रीलिङ्ग आकारान्तशब्दं पठितवन्तः वा हू आल्रेडि नो नाट् देम् सम्बडि हू रेड् इट् न्यूलि
अहं प्रयत्नं सीता सीते सीताः सीता सीते सीताः सीतया सीताभ्यां सीताभिः सीतायै सीताभ्यां सीताभ्यः सीतायाः सीताभ्यां सीताभ्यः सीतायाः सीतायोः सीतानां सीतायां सीतायो सीतासु हे सीते हे सीते हे सीताः
अत्र सीताभिः बि इति आगच्छति अतः विसर्गः अपि हि सीताभिः समानं सीतयोः सीतासु सीतयोः इति आगच्छति योः यदा विसर्गं सर्वदा द प्रीवियस् वर्ड् किमस्ति तत् अनुसरति अत्र ओ आगच्छति अतः ह अपि हो भवति सीतयोः अत्र सीता बि इ अस्ति अतः सीताभिः ह प्लस् इ
तृतीया इति सीतया सीताया
सीतया सीतया एकं निमिषम् सीतया तदेव अद्य अद्यतनपाठः तृतीया विभक्ति मध्ये
मैम बिफोर वी प्रोसीड वन क्विक क्वेश्चन इन्स्टेड् आफ् यूसिङ्ग् दिस् धरयन्ति throughout the essay or whatever, throughout the paragraph, can you share some more synonyms for where in Sanskrit?
अत्र प्रथमं whatever is simple, whatever we use it for spoken. अस्माकं लक्ष्यं स्पोकन् सरलसम्भाषणमेव सो मेनि अदर् वर्ड्स् दट्स् वाट् ऐ सेड् सी टोटलि देर् आर् अराउण्ड् 2000 धातुस् एण्ड् हौ दे आर् यूस्ड् डिफ़्रेण्ट् डिफ़्रेण्ट् वे फ़र् एक्साम्पल् अस्ति इति एकपदमस्ति जनरलि वी से अस्ति दट् हेस् सो मेनि वर्तते सो मेनि डिफ़्रेण्ट् वर्ड्स् इन् आत्मनेपदि अण्ड् परस्मैपदि But if we use different words, it will be confusing. Why I am saying Dharati there and some other word? So, we are at the Pratama Sopanam. We are in the first step. So, I don't want to use so many new words. Whatever words we know, let's put it in a proper way. Idanim aham kim pashyami vakyam, vakya rachanam. Eka kriya padam, eka karma padam, eka kartru padam. Subject, action word, verb. adjective tat paryaptam I am kinchit vibhakti and tenses so if you could make one sentence properly 10 sentences properly that is more than enough at this stage
okay
once we are clear with that then there are so many things so many words tadeva muktavati parasmaipati atmanepati in the kriya padam we have like that so many and lakara so many lakaras कर्मणि कर्तरि इति तत्सर्वं पठामः परन्तु इदानीम् अस्माकं लक्ष्यं फस्ट् लेवेल् अस्माकं लक्ष्यं तु सरलसम्भाषणमेव भयं विना वितौट् एनी डौट् आर् वितौट् एनी हेसिटेशन् यु शुड् पुट् युवर् सेल्फ् देट्स् आल्
ओके श्योर् मेम् थेङ्क् यु
यु आल् गाट् डिस्टिङ्क्षन् इन् देट् चिन्ता मास्तु So, atah, first, the same word what we are using, dharati, there are so many variations like dharati, dharanti, where to use dharati, where to use dharanti, dhritavan, dhritavati, dharami, dharamaha, how to put it, it's all same tense, present tense, dharati, dharanti, bahuvachanam, same present tense, anantaram dharami, dharamaha, that api present tense eva, vartamana kalaha eva, but it is for the uttama purushaha. ऐ वि अनन्तरं धृतवान् धृतवती भूतकालः धृतवन्तः धृतवत्यः पुनः स्त्रीलिङ्गम् इदानीं तत् पर्याप्तम् अस्तु अग्रे गच्छामः एतत् तृतीया विभक्ति पठामः वयं पूर्वमेव तृतीया विभक्तिविषयं पठितवन्तः किञ्चित् यदा तत्र शब्दरूपम् आगच्छति अहम् उक्तवती जनरली तृतीया विभक्ति अहम् उक्तवती वा एक्साम्पल्स् ऐ थिङ्क् ऐ गेव् यू मेनि एक्साम्पल्स् नाट् इन् दिस् बुक् बट् वेन् वि रेड् दट् रामेण इदानीं वयं पुस्तक आधारेण पठामः जस्ट् वि गो थ्रू द बुक् नाट् ईज़ि पश्यतु इदानीं रामेण तृतीया विभक्ति एकवचनं मात्रं पश्यामः विभक्ति एकवचनं रामेण सीतया तत्र रामेण मध्ये पुल्लिङ्गमपि आगच्छति नपुंसकलिङ्गमपि आगच्छति समानमेव वनेन वनम् इति शब्दं कुर्मः चेत् नपुंसकलिङ्गं वनेन रामेण पुल्लिङ्गशब्दं सीतया इति स्त्रीलिङ्गशब्दं सीतया तत्र वेन् दिस् तृतीया विभक्ति विल् कम् वेन् यु वाण्ट् देर् आर् टु एक्साम्पल्स् फर् तृतीया विभक्ति वन् आधारं द इन्स्ट्रुमेण्टल् केस् टु डू सम् वर्क् वाट् इस् इन्स्ट्रुमेण्ट् तत् एकम् अनन्तरम् उपपदविभक्ति इति यदा सः इति एकपदम् आगच्छति अहं मम मित्रेण सह गच्छामि अहं मम पुत्रेण सह गच्छामि इति यदा आगच्छति तत्रापि एतत् आगच्छति. अनन्तरं विना इति एकपदं, वितौट्, जलेन विना जीवनं नास्ति. तत्र द्वितीयापि सम्यक्, जलं विना, विना इति पदस्य तृतीयापि सम्यक्, द्वितीयापि सम्यक्. इन् सम् केसस् देर् विल् बि मोर् देन् वन् विभक्ति विल् बि करेक्ट्. इट् डज़न्ट् मीन् दट् यु केन् यूस् ओन्ली वन्, मोर् देन् वन् इस् आल्सो करेक्ट्. सो तृतीया विभक्तिमध्ये फस्ट् वि विल् सी द एक्साम्पल्. हस्तः, सः हस्तेन कार्यं करोति. He uses his hand to work. Sivanayantram. Sa Sivanayantrena Vastram Sivyati. Sivyati is stitching. Anantram Lokayanam. Bas. Janaha Lokayanena Prayanam Kurvanti. Anantram Syutaha. Yeshaha Syutena Vastuni Anayati. Pullingashaptam. एतत् पर्यन्तं किमपि सन्देहमस्ति वा पुल्लिङ्गशब्दे? वेर् टु यूस्, हौ टु यूस्? ऐ विल् गिव् यू मोर् एक्साम्पल्स्. अहं रैल् यानेन देहलीं गच्छामि, विमानयानेन विदेशं गच्छामि, अहं मम उपनेत्रेण पश्यामि. ऐ यूस् स्पेक्स् टु सी. उपनेत्रेण पश्यामि, दूरदर्शनं पश्यामि. पादेन चलामि, ऐ वाक् वित् मै लेग्स्. तत्र देर् आर् टु थिङ्ग्स्, गच्छामि अपि चलामि अपि, भूत् आर् रैट्. जनरलि गच्छामि इस् अ कामन् वर्ड् फार् गोयिङ्ग्. वेन् यु गो वित् लेग्स्, चलामि, चलति, चलामि इति स्पेसिफिक् क्रियापदम् आगच्छति. इदानीं पुल्लिङ्ग उदाहरणं वदति वा, पुल्लिङ्गं वा नपुंसकलिङ्गं?
अहम् अहं चषकेन जलं पिबामि.
चषकेन जलं पिबामि. अन्यदा
अहं चमसेन, सोरि, अहं चमसेन भोजनं करोमि.
आं, खादामि,
खादामि.
महेशः फेनकेन वस्त्रं क्षाल्यति.
फेनकेन, फेनकेन
वस्त्रं क्षाल्यति.
अहं हस्तेन लिखामि.
सम्यक्.
सोपानेन आरोहामि.
आरूढामि,
आरूढामि.
भगिनि, आरूढामि
गोयिङ्ग् अप्, आरोहणं,
क्लैम्ब्.
शब्दम् आगच्छति, स्मार्ट् सैलेण्ट् एनिरन्नं तन्न. अग्रे
अहं सन्तोषेण संस्कृतं पठामि.
सम्यक् उत्तमं. सन्तोषेण संस्कृतं पठामि.
अहं बालकेन सह विद्यालयं गच्छामि.
सम्यक्, बालकेन सह विद्यालयं गच्छामि.
अहं नेत्राभ्यां पश्यामि, सोरि, द्विवचनं,
चिन्ता मास्तु, भवती जानाति,
नेत्राभ्यां पश्यामि.
नेत्राभ्याम् एव सम्यक्, बट् वि डोण्ट् यूस् द्विवचनं हियर्. First we will understand the vibhakti, so ekavachanam paryaptam. Netrena pashyami.
Balaka Balaka kandukena kridati.
Balaka kandukena kridati.
Drupaha Drupaha sevakena saha gacchati.
Aam.
पिता दण्डेन पुत्रं ताडयति.
हा दण्डेन पुत्रं ताडयति. अहं
अहं पूर्चेण चित्राणि लिखामि. उपनेत्रेण विना पुस्तकं पठितुं न शक्नोमि.
उपनेत्रं विना पार्वती भगिनी यदा चित्रम् इति आगच्छति रचयामि ड्रायिङ्ग् रचयामि हा लेखनं लिखामि चित्रं रचयामि
चित्रं रचयामि धन्यवादः भगिनि.
अनन्तरं स्पष्टं वा? इदानीं स्त्रीलिङ्गं पश्यामः वा? द्विचक्रिका आ आकारान्तस्त्रीलिङ्गं द्विचक्रिका सीतया इति आगच्छति. भारती द्विचक्रिकया विद्यालयं गच्छति. द्विचक्रिका अस्ति तत्र आ विल् गो अया विल्कम् द्विचक्रिकया विद्यालयं गच्छति. एषा कुञ्चिकया तालम् उद्घाटयति. तालम् इस् लाक् कुञ्चिका की. उद्घाटयति ओपनिङ्ग् पिदधाति क्लोसिङ्ग्. कर्तरी पश्यतु अत्र एकं डिफ्रेन्स् अस्ति. द्विचक्रिका यदा आगच्छति का आ विल् गो अया विल् कम्. यत्र कर्तरी अस्ति तत्र लास्ट् ई कर्तरी इर् प्लस् ई विल् गो इर् विल् बि देर् द लास्ट् वर्ड् विल् बि देर् हलन्त् शब्द विल् बि देर् एण्ड् अया विल् कम् कर्तर्या कर्तर्या सौचिकः कर्तर्या वस्त्रं कर्तयति. सौचिकः टैलर्. दूरवाणी आपणिकः दूरवाण्या इन् विल्कम् दूरवाण्या सम्भाषणं करोति. अङ्कनी बालिका अङ्कन्या चित्रं लिखति. अत्रापि लिखति एव अस्ति परन्तु यदा चित्रम् आगच्छति ड्रायिङ्ग् रचयति. आकारान्त ईकारान्तपदानि वदन्ति वा वाक्यानि? प्रयत्नं कुर्वन्तु साहाय्यं करोमि.
अहं द्रोण्या द्रोण्या शाकं परिवेष्यामि.
सम्यक् द्रोण्या शाकं परिवेष्यामि.
वृद्धा मालया जपति
जपं करोति.
जनाः नासिकाया जिग्रामः.
जनाः नासिकया नासिका नासिकया जिग्रन्ति अथवा यदा वयम् इति वदति जिग्रामः. वयं नासिकया जिग्रामः. अहं कूप्या जलं पिबामि. अन्य उदाहरणं वदतु.
अहं
अस्तु रमा भगिनी.
अहं दर्वेण क्वथितं परिवेशयामि.
वदन्तु.
हलो कोऽपि वदतु. अहं दर्वेण क्वथितं परिवेशयामि.
दर्व्या दर्वी दर्व्या दर्व्या क्वथितं परिवेशयामि. सम्यक् कौशल्या भगिनी इदानीं वदतु.
जिह्वया खादामि.
जिह्वया खादामि. जिह्वया रुचिं पश्यामि. दन्तैः खादामि. अनन्तरं
कुम्भकारः
घटं करोति. कुम्भकारः
मृत्तिकया कथं करोति?
मृत्तिका क्ले सेण्ड् मृत्तिकया कथं करोति? सम्यक्
गत्या समयः पश्यति.
पश्यामि. सम्यक् गत्या समयं पश्यामि.
अहं जपमालया
कर्मपदं समयं
अहं जपमालया जपं करोमि.
आम्
बालिका गुरु बालिका ओके श्री यू केन् गो.
गुरुविना जीवनस्य अर्थं मनुष्यः न जानन्ति.
गुरुणा स्त्रीलिङ्गपदम् एतत् स्त्रीलिङ्गं
नास्ति.
गुरुणा पुलिङ्गम्
ओके. गुरुणा विना जीवनस्य अर्थं मनुष्यः न जानन्ति.
अहम् अध्यापिकया पाठं पठामि.
बालिका कुर्तर्या कुर्तयति.
भगिन्या सह देवालयं गच्छामि.
भगिन्या सह देवालयं गच्छामि. सम्यक् अस्तु गच्छामः. अरविन्द महोदय न उक्तवान्. अस्ति वा अरविन्द महोदय अस्ति वा? सः इति सः अपि तृतीया विभक्ति एव उपयोगं कृत्वा वदामः. पुत्रेण सह आपणं गच्छति. सा सख्या सह विद्यालयं गच्छति. सः अलाङ्ग् वित् इति अर्थम् आगच्छति. सः पदम् अत्र उदाहरणम् अस्ति. अहं नाम वदामि, सर्वे वाक्यानि वदन्तु. तत् पठतु एकमेकम्. रामः रावणः युद्धं कृतवन्तः. तत् सम्यक् वाक्यं वदति वा? मधुरिका भगिनी वदतु.
रामः रावण
रावणेन सह
राम ओके बिकास् इट्स् पुल्लिङ्ग. राम रावणेन सह युद्धं कृतवान्.
सुजया भगिनी. लक्ष्मणः रामः डेश् वनं गतवान्.
रामः लक्ष्मणेन सह वनं गतवान्.
परन्तु अत्र रामः एव प्रधानम्, अतः रामः लक्ष्मणेन सह वनं गतवान्. चिन्ता मास्तु, द्वयमपि सम्यक् एव. अनुभगिनी. गोपालः माधवः अभ्यासं करोति.
गोपालः माधवेन सह अभ्यासं करोति.
रमा भगिनी. अहं मित्रं डेश् नाटकं पश्यामि.
अहं मित्रेण सह नाटकं पश्यामि.
अनुभगिनी उक्तवती वा? एषा सीता तिष्ठति.
एषा सीताया सह तिष्ठति.
सीतया सह तिष्ठति. विजया भगिनी. सुरेशः भगिनी. अत्र बोल्ड् मध्ये किमस्ति तत् उपयोगं करोतु. सत्या
सुरेशः भगिन्या सम्भाषणं करोति.
भगिन्या सह
सम्भाषणं करोति.
लक्ष्मी भगिनी माता पुत्री
माता पुत्र्या सह कार्यं करोति
पुत्र्या सह कार्यं करोति वीणा भगिनी अध्यापकः छात्राः
अध्यापकः छात्रैः सह
बहुवचनम् छात्रः छात्रैः
सह प्रवासार्थं गतवान्
छात्रेण अपि सम्यक् फस्ट् प्रथमं
एकवचनं छात्रेण सह प्रवासार्थं गतवान्
पश्यतु अत्र डौन् दर्स् वन् बोल्ड् लेटर्स् छात्रेण छात्रैः मित्रेण मित्रैः बालिकया बालिकाभिः सख्या सखीभिः इति बहुवचनरूपम् अपि तत्र दत्तवन्तः परन्तु मम अभिप्रायः प्रथमं एकवचनं स्पष्टीकुर्मः स्पष्टं कुर्मः इति अस्तु लता सख्यः इति अस्ति कौशल्या भगिनी
लता सख्या सह क्रीडति
लता सख्या सह क्रीडति अत्र सख्यः अस्ति अतः सखीभिः सह बहुवचनमपि आगच्छति अत्र दत्तवन्तः अनन्तरम् अतः सम्यक् अत्र 19.2 पेज् नम्बर् 53 मध्ये अस्ति पश्यतु करोति सः दिनेशः मित्रैः प्रतिदिनम् अभ्यासम् इति अस्ति इट् इस् लैक् जम्बल्ड् वर्ड् इदानीम् अहम् उक्तवती खलु वेन् यु मेक् एनी सेण्टेन्स् मेक् श्योर् यु आर् इन् आर्डर् लैक् हौ वि डू इट् इन् इङ्ग्लिश् सेम् वे कर्तृ सब्जेक्ट् प्रथमं कर्मं द्वितीयं तृतीयं क्रिया action verb, verb. The last madhye karma padam iti adjective iti eva vakyam mayam rachayamaha atra pashyatu karoti sah dineshah mitraihi pratidinam abhyasam iti asti so if you make it properly dineshah pratidinam mitraihi sah abhyasam karoti iti eva samyak agachati अत्र वन् वन् थिङ्ग् ऐ लैक् टु से दिनेशः इति अस्ति मित्रैः सह इति अस्ति मित्रैः सह बहुवचनं परन्तु प्रारम्भवाक्यं कर्ता सब्जेक्ट् किम् एकवचनम् एव अतः करोति एव सम्यक् तत्र यदा वयम् इति वदामः तत्र मात्रं बहुवचनम् आगच्छति अथवा मध्ये वाक्यस्य मध्ये किमपि वचनम् उपयोगं करोतु तत् भिन्नं परन्तु प्रारम्भस्थाने किं सब्जेक्ट् एकवचनं वा बहुवचनं वा दट् डिसैड्स् द क्रियापदस्य वचनं क्रियापदस्य वचनम् अस्तु वा अनु भगिनि आगतवान् सः कः भवता
कः भवता सह आगतवान्
कः भवता सह आगतवान् तत्र भवता इति एकं पदमस्ति खलु तत्र भवान् इति पदमस्ति भवान् मीन्स् यु पुल्लिङ्गशब्दं भवती यु फर् अ स्त्रीलिङ्गं तत्र भवता भवान् शब्दस्य भवान् तत् इस् अ भिन्नशब्दं नाट् लैक् रामशब्दं हर्लन्दशब्दः इति भिन्नः आगच्छति तत्र भवता एव तृतीया विभक्ति समानं भवती इति पदमस्ति तत् समान ईकारान्तपदं भवत्या भवत्या भवती भवत्या भवान् भवता इति अर्थः मेबि इट् मैट् बि कन्फ्यूसिङ्ग् यू नौ
दट् सः करोति सर्वे
कलहं शर्मिला भगिनी कलहं सः करोति सर्वैः
सः सर्वैः सह कलहं करोति
श्रीभगिनी
आगच्छामि वा अहमपि सः भवत्या श्रीरञ्जनी भगिनि
अहमपि
म्यूट् मध्ये अस्ति
Actually, ma'am, I can't. I don't have a view of the screen. So if you could repeat it, please.
Yuddham sainikah sa karoti
shatrubhi. I did screen sharing. Why are you not able to see?
In my phone, I don't know. It's still...
Sainikah.
So Jaya Bhagini, please mute.
Agachami va aham api saha bhavatya. Prayatram karoto.
Aham api saha... aham api... अहमपि भवत्या सह आगतवान्
आगच्छामि वा
आगच्छामि
पारुल् भगिनी युद्धं सैनिकः सह करोति शत्रुभिः
सैनिकः शत्रुभिः सह युद्धं करोति
आं सम्यक् अजय् महोदयः अस्ति वा कदाचित् सम्भाषणं न करोति करोति वा सम्भाषणं किमर्थं न सम्भाषितं सम्भाषणं कृतवान् अस्तु चिन्ता मास्तु वदति वा करोति वैद्यः सह रोगिभिः सम्भाषणम् Can you try?
What was the question?
Karoti vaidyah sah rogi bihi sambhashanam. Can you order, reorder it?
Vaidyah rogeti sah sambhashanam karoti.
Samayam. Vaidyah rogi bihi sah sambhashanam karoti. Uttam. अरविन्द् महोदय अस्ति वा
अस्तु
ललिता सह कृतवती चर्चाम् अध्यापिकाभिः
ललिता अध्यापिकाभिः चर्चां कृतवती सोरि अध्यापिकाभिः ललिता सह चर्चं करोति
ललिता
ललिता अध्यापिकाभिः सह चर्चां कृतवती
आं सम्यक् उत्तमं सो नौ यु नो दट् री आर्डर् आफ् द वर्ड् ऐ मीन् हौ द सेण्टेन्स् हौ इट् शुड् कम् कर्तृ क्रिया अनन्तरं कर्तृ कर्म अनन्तरं क्रिया इति आर्डर् इट्स् द सेम् लैक् इङ्ग्लिश् इट्स् वेरि सिम्पल् अस्तु सम्यक् इदानीं विना
भगिनी
पदम्
ऐ हेव् अ डौट्
वदतु भगिनि
इन् द फस्ट् सेण्ट् सेकेण्ड् अण्ड् इन् द फोर्त् क्वश्चन् I thought is to be correct as bhavata kaha saha agatavan. Is it also correct?
Bhavata?
Kaha saha agatavan?
No, tatra kena saha agatavan. Bhavata ha? So, pratama vibhakti, bhavata words, pratama vibhakti is bhavan. Bhavan, kena saha agatavan. So this kaha is so there, no? That is in Pratama Vibhakti. That should also be in Tritiya Vibhakti.
Okay, so in this case we have to say kaha saha bhagavata agatavan, is it?
No. Bhavata saha kaha agatavan.
Bhavata saha kaha agatavan. Yeah, because... Okay. And
because here karta, who's karta? The subject is... the madhyama purushaka, second person. So you can change it in two ways. Kaha bhavata saha agatavan api samyak. Bhavata kaha saha shrita. Kaha bhavata saha agatavan api samyak.
Okay. And in
but the if you wanted one, to change the question, then
yeah.
Bhavan kena saha agatavan?
No, I don't want to change the question. I just thought instead of I thought the answer to be bhavata kaha saha agatavan.
तत्र भवता सह कः आगतवान् एव सम्यक् पश्यतु इट् इस् वन् सिम्पल् रूल् ऐ विल् टेल् यू जस्ट् टु रिमेम्बर् वेर् एवर् यु यूस् द तृतीया विभक्ति सः शुड् कम् अलाङ्ग् वित् देट् वन्लि इट्स् अ सेम् लैक् सेम् वर्ड् यु केनाट् स्प्लिट् देट् यु केनाट् स्प्लिट् भवता एण्ड् देन् यु केनाट् से कः सः then there you have to use kena sah kaha padasya tritiya vibhakti kena you have to use that
okay. Yeah,
you still wanted to use kaha eva, then it should be bhavata sah kaha agatavan eva samyak.
Okay, and in the bhavatya, in that case I had the same doubt. Bhavatya aham api sah agachhami va, is it correct?
न अहं भवत्या सह अहम् अपि ऐ आल्सो भवत्या सह आगच्छामि वा
ओके ओके ओके
सम्यक् या
थेङ्क् यू
गुड् देट् मे बि फादर्स् हेव् डौट् देट् आल्सो पश्यतु अत्र दीना इति पदं मे बि एनी एनी अदर् हेव् एनी अदर् डौट् बिकास् तृतीया इस् लिटल् confusing. It's not confusing, but maybe you should know the order. Tritiya. We'll do the abhyasa, more abhyasa.
Bhagini, I have a question not totally related to this. When do you use visarga and when do you use letter ha?
Visargah, generally we use for any, in the sentence it's always Visargah will come. But when Sambodhana Vibhakti, a casual talk comes, I don't need to use the Visargah. For example, Balakah agachatu iti navashyakam. Bala agachatu, I can simply use that word. Visargah tatra navashyakam. Sambodhana means casual talking. तत्र विसर्गः आवश्यकता नास्ति. फर् एक्साम्पल् महोदयः इति एकपदमस्ति. महोदया स्त्रीलिङ्गं, महोदयः पुल्लिङ्गशब्दं. परन्तु यदा अहं महोदय इति वदामि तत् समटैम्स् इट् मे कम् एस् महोदया, इट् मैट् लुक् लैक्, बट् ऐ डोण्ट् नीड् टु से महोदयः, ऐ डोण्ट् नीड् टु काल् महोदयः एव्री टैम्. अजीत् महोदय इति अहं वदामि. यदा स्त्रीलिङ्गं महोदया इति लिटल् लाङ्ग् दीर्घ आगच्छति, तत्र महोदयः इति विसर्गः न आवश्यकम्. पश्यतु विना इति अहं पूर्वमेव उक्तवती, ऐ टोल्ड् यु अर्लियर् विना इति पदं सः विना, बोत् केन् कम् इन् तृतीया विभक्ति एण्ड् दोस् केन् कम् इन् द्वितीया विभक्ति आल्सो. हियर् इन् द example they have given as dvitiya vibhakti eva.
But when do you substitute,
let me explain first. Pashito jalam vina jivanam katinam, tatra dvitiya vibhakti. Jalam vina mahodaya, can you mute, let me first explain, when you have doubt then you can ask. Jalam vina jivanam katinam, तत्र जलं विना जीवनं कठिनं, तदपि सम्यक्. यदा जलेन विना जीवनं कठिनं, तदपि सम्यक्. परन्तु यदा आधारः, दिस् इस् द ओन्लि वे टु लिव्, तत्र द्वितीया विभक्ति सम्यक् भवति. पश्यतु विशेषसूचना इति, जलं विना मीनः न जीवति इत्येतादृशः प्रयोगः अपि शुद्धः एव. फ्यूसे जलं विना अपि सम्यक्, जलेन विना अपि सम्यक्, तत्र यु हेव् द चाय्स्. तैलेन विना वाहनं न चलति, तैलं पेट्रोल्. वाहनतैलम् इति देर् इस् अ सेपरेट् वर्ड् आल्सो परन्तु अहं वाहनतैलम् इति उपयोगं करोमि. वाहनं न चलति, तत्र तैलं विना वाहनं न चलति अपि सम्यक् वा तैलेन विना वाहनं न चलति अपि सम्यक्. अहं विद्यालयं न गच्छामि, मम मित्रेण विना अहं विद्यालयं न गच्छामि, अथवा मम मित्रं विना विद्यालयं न गच्छामि. द्वयमपि तत्र सम्यक् एव. तृतीया वा? परन्तु वयम् इदानीं तृतीया एव पठामः, सो वि यूस् तृतीया नौ जस्ट् फर् प्राक्टिस्. वाक्यानि वदति वा? विना उपयोगं कुर्वन्तु. विना, परन्तु इदानीं तृतीया उपयोगं करोतु. बोत् आर् रैट्, नथिङ्ग् राङ्ग्. अहं वदामि, अहं दूरवाण्या विना बहिः न गच्छामि. वितौट् मै फोन् ऐ डोण्ट् गो औट्.
वायुः विना कोऽपि न जीवति.
आम्, तत्र वायुना, वायु इति पुनः उकारान्तशब्दः, वायुना विना,
वायुना विना,
उपनेत्रेण विना.
आम्,
उपनेत्रं विना अहं न पश्यामि.
सम्यक्, उपनेत्रं विना अहं न पश्यामि.
मधुरेण विना बालकः भोजनं न खादति.
आम्, अनन्तरं विना उपयोगं कुर्मः.
भगिनी,
केन्
वि से, इफ् ऐ वाण्ट् टु से without rains farmers will suffer, can we say vrishtya vina?
Vrishti tatra punah vrishtihi iti padam asti, ikaranta padam asti. Vrishti, vrishtina vina,
vina vina,
vina vina,
athava vrishtya vina. Samya shamita,
can we say vrishtya vina?
Aam, aam. कृषिकः वदतु. अस्माकं जीवनमपि कठिनमेव, अवर् लैफ् आल्सो वेरि डिफिकल्ट्. जीवनं कठिनम् एव,
जीवनं कठिनम्.
आम्,
भगिनी, हौ यू विल् रैट् वृष्ट्या, वृष्ट्या,
I don't know. Maybe I will type it in WhatsApp.
Okay.
Vrish. Yeah, that...
Half-sha, half-ta.
Yada, baginya iti agachati. Half-ta. Vrish-ta. Half-ta. Halad will come. And ya.
Okay.
Ahamli kami.
Thanks.
Vana vina... वन विना पशुः न जीवति.
वनेन विना,
वनेन विना पशुः न जीवति.
आम्, वनं विना अपि सम्यक्, वनेन विना एव वयम् उपयोगं.
यानेन विना कार्यालयं न गच्छति.
आम्, सम्यक्. वदतु पार्वती.
मत्स्या विना अङ्कनी न चालयति.
मस्या विना, मसि इङ्क्, मस्या
मसि विना, मस्या विना अङ्कनी न चालयति,
न चलति,
न चलयति, न चलति. ओके, वी केन् राइट् आल्सो नो मसि विना अङ्कनी न चालति.
मस्या, मस्या विना,
मस्या. ओके,
मसि स्त्रीलिङ्गं. आम्, मशीन् विना अपि सम्यक्.
There
is no rule, that's what it is given down, no? You can use both dvitiya and tritiya along with vina. But Pashetu, this is not an exception for saha. Saha will always be with tritiya. you will know these are called upapada vibhakti. This can come with multiple vibhakti. We will read all those things, like alam iti eka padam asti. Alam tritiya madhye api agachati, chaturthi madhye api agachati, shashti madhye api agachati. Like that, there are some words which can come in multiple vibhakti.
Asti. Dugdham vina chayam na rochate.
Kim?
Rochate or rochati?
Kim?
Dugdham vina chayam na rochati.
Rochate. Tatmanipati. Rochate.
Lavanam vina bhojanam na rochate.
Haam. Lavanam vina bhojanam. Lavanena vina bhojanam na rochate. Asto. Sami. Agami saptahe. Is it difficult for you to prepare this 1 hour sambhashanam? Do you want to go ahead? How do you want to do?
Aam bhagini.
Nishchayana.
Don't
feel that it is a load. It's a load for you.
No, it's interesting to learn.
Interesting. The usage. This week, I thought of giving Bhavantaha Ruchihi, your interest, hobbies, or anything about yourself. Which others can know.
Ruchihi. Ruchihi.
Abhiruchihi iti vadanti.
Abhiruchihi.
Bhavantaha abhiruchihi. Kutra asti iti. Udaharanartam. Mama abhiruchihi krishi karye asti. I like to do agriculture. Aham eka udhyanam nirmanitavati. Krihasya purataha. Eka empty land. Aham clean krutva. Tatra. Karyam karami, krishi karyam karami. Mama putrena saha. Esha vadi.
Mama putrena saha.
Evam, eka eka asya ruchihi, eka eka vishya asya. Whichever you wanted to do, whichever you wanted to tell, you can share few words about its main thing is, you should be able to communicate sarva sambhashanam eva avashyakam. Vishayam chinta adhikam na karotu, sarala sambhashanam eva asmakam lakshya. Sarala vakyena vadatu. Don't take very difficult thing and you find too hard kriyapadam na avashyakam. Lahu kriyapadam eva upayogam karotu, parantu samyak vadatu. Vibhakti, now we have almost done all vibhaktis except chaturthi. Chaturthi vibhakti idanim vayam na patitavantah. Anya sarve vibhakteh vayam patitavantah. Tat sarvam upayogam kurvantu. Whichever is possible. Samyak likantu. Abhyasam kurvantu. Astu va? Agami saptahe milamah. Sarve bhavantu sukhinah vadamah. Sarve bhavantu
sukhinah.
Sarve
santu niramayah.
Sarve
bhadrani pashyantu. Ma vrushit buddha bhavane. Om shanti shanti shanti.
धन्यवादः
भगिनी
धन्यवादः
शुभरात्रि